इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् भारतम् अन्तरिक्षविमाननक्षेत्रे वैश्विकनेतृत्वेन उद्भवति। मोदी नवदिल्ल्यां विश्ववायु परिवहनसंघस्य शिखरसम्मेलनम् सम्बोधितवान्। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम् यत् अन्तरिक्षविमाननक्षेत्रे भारतम् वैश्विकनेतृत्वेन उद्भवति। नवदिल्ल्याः भारतमण्डपम् इत्यत्र अन्ताराष्ट्रियवायुपरिवहनसंघस्य IATA इत्यस्य एकाशीतितमे वार्षिकोत्सवे सामान्यसभायां मोदी सम्बोधितवान्। प्रधानमन्त्रिणा वैश्विकविमानव्यवस्थायां विशालविपणेन सह नीतिनेतृत्वस्य नवीनतायाः समावेशिवृद्धिश्च प्रतीकत्वेन भारतस्य भूमिकायाः उपरि बलं प्रदत्तम्। अद्य भारतं पूर्वस्मात् अपि अधिकम् आत्मविश्वासेन आपूरितमस्ति। मोदी अवदत् यत् एताभिः विशेषताभिः भारतं स्वस्य विमाननक्षेत्रम् अभूतपूर्वाम् ऊर्ध्वतां प्राप्तुं सन्नद्धमस्ति। अस्मिन् शिखरसम्मेलने भवद्भिः कृताः चर्चाः वैश्विकविमानयानस्य कृते नूतन दिशां दास्यन्ति।
आज का भारत पहले से कहीं ज्यादा आत्मविश्वास से भरा हुआ है। ग्लोबल एविएशन इकोसिस्टम में हम न केवल एक विशाल मार्केट है बल्कि पॉलिसी लीडरशिप इनोवेशन और इंक्लूसिव डेवलपमेंट के प्रतीक भी है।
भारत पराग्वे देशौ स्वच्छ ऊर्जा हरित हाइड्रोजन इति जैवेंधनम इत्यादिषु अनेक क्षेत्रेषु संबंधम अधिकं सुदृढं करिष्यतः। भारत पराग्वे देशौ स्वच्छ ऊर्जा इति हाइड्रोजन इति जैवेंधनम इत्यादिषु च क्षेत्रेषु स्वसंबंधम अधिकं सुदृढं कर्तुं निर्णयं कृतवन्तौ। नवदिल्ल्यां प्रधानमंत्री नरेन्द्र मोदी पराग्वे देशस्य राष्ट्रपतिः सेंटियागो पेना पलासियोसः च प्रतिनिधिमण्डलस्य वार्तायाम् एतं निर्णयं कृतवन्तौ। राष्ट्रपतिः द्रौपदी मुर्मुः पैराग्वे देशस्य राष्ट्रपतिः सेंटियागो पेना पलासियोसस्य राष्ट्रपतिः राष्ट्रपतिभवने स्वागतं कृतवती। तस्य सम्माने भोजनम् अपि आयोजितवती। राष्ट्रपतिः जनसंपर्क पटले उक्तवती यत् उभयोः देशयोः मूल्यानां वैश्विक महत्वानां वैचारिक समानतानां आधारेण उभौ सम्बन्धं सुदृढीकर्तुं सहमतौ। आन्ध्रप्रदेश प्रशासनस्य रियल टाइम गवर्नेंस सोसाइटी इति भारतीय अन्तरिक्ष अनुसंधान संघटनस्य श्रीहरिकोटा रेंज इति च गतदिने आन्ध्रप्रदेशे रियल टाइम नागरिक केन्द्रित शासनाय अन्तरिक्ष प्रविधेः पञ्चवर्षस्य सन्धि ज्ञापने हस्ताक्षरं कृतवती। गृहमन्त्री अमितशाहः नवदिल्ल्यां विश्वस्य बृहत्तमायाः सहकारी खाद्य धान्य भण्डारण योजनायाः समीक्षा सभां कृतवान्। शाहः अवदत् यत् खाद्य धान्य संचय योजना प्रधानमन्त्रिणः नरेन्द्र मोदिनः सहकार्यद्वारा समृद्धेः स्वप्नस्य साकारीकरणस्य दिशि एकः बृहत् प्रयासः अस्ति। असम जल प्रदेशे जलौघस्थितिः गभीरा वर्तते। राज्यस्य अनेकेषु भागेषु जलस्तरः वर्धितः। 17 मण्डलेषु प्रायः 4 लक्ष जनाः जलौघेन प्रभाविताः सन्ति। मुख्यमंत्री हिमंत बिस्व शर्मा अद्य लखीमपुर मण्डलस्य भ्रमणं कृत्वा जलौघस्य स्थितिं निरीक्षितवान्। भगवतः बुद्धस्य पवित्रावशेषस्य दर्शनाय ऐतिहासिक राष्ट्रव्यापिन्याम् उपासनायाम् भारतात् प्रेषिताः 870,000,000 श्रद्धालवः वियतनामं प्राप्तवन्तः। सर्वोच्च न्यायालयस्य आदेशानुसारं राष्ट्रिय परीक्षा मण्डलेन चिकित्सा विज्ञानस्य नीट PG परीक्षा स्थगिता इति वार्ताः।